श्रीमद्भागवत महापुराणम् सप्तमस्कन्धः अथ नवमोऽध्यायः प्रह्लाद स्तुति। नारद उवाच एवं सुरादयः सर्वे ब्रह्मरुद्रपुरःसराः नोपैतुमशकन्मन्यु संरम्भं सुदुरासदम् साक्षात् श्रीप्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् अदृष्टाश्रुतपूर्वत्वात् सानुपेयाय शङ्किता प्रह्लादं प्रेषयामास ब्रह्मावस्थितमन्तिके तातप्रशमयोपेः स्वपित्रे कुपितं प्रभुम् तथेति शनकैराजन्महाभागवतोऽर्भकः उपेत्य भुवि कायेन ननाम विवृताय जलिः स्वपादमूले पतितन्तमर्भकं विलोक्य देवः कृपया परिप्लुतः उत्थाप्य तच्छीर्ष्य दधात् कराम्भुजं काला हि वित्रस्तधियां कृताभयम् सतत्करस्पर्शधुताखिलाशुभस्सपद्यभिव्यक्तपरात्मदर्शनः तत्पादपद्मं हृदि निर्वृतो दधौ ऋष्यतनुः क्लिन्नरुदश्रुलोचनः अस्तौ श्रीधरिमेकाग्रमनसा सुसमाहितः प्रेमगद्गदया वाचा तन्यस्तहृदये क्षणः प्रह्लाद उवाच ब्रह्मादयस्तुर्गणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः नाराधितुं पुरुगुणैरधुनापि पेपृक् किन्तोष्टुमर्हति समे हरिरुग्रजातेः मन्ये धनाभिजनरूपतपःश्रुतौजस् तेजः प्रभावबलपौरुषबुद्धियोगाः नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तु तोष भगवान् गजयूथपाय विप्राद्विषड् गुणयुतादरविन्दनाभ पादारविन्द विमुखाच्वपचं वरिष्ठम् मन्ये तदर्पितमनोवचने हितार्थः प्राणं पुनाति सकुलन्न तु भूरिमानः नैवात्मनः प्रभुरयन्निजलाभपूर्णो मानैजनादविदुषक् करुणो वृणीते यद्यज्जनो भगवते विदधीतमानन् तच्चात्मनि प्रतिमुखस्य यथा मुखश्रीः तस्य तस्मादहं विगतविक्लवईश्वरस्य सर्वात्मनामहि गृणामि यथामनीषम्। नीचो जया गुणविसर्गमनुप्रविष्टः पूयेत येन हि पुमाननुवर्णितेन। सर्वेयमेविधिकरास्तव सत्त्वधाम्नो ब्रह्मादयो वयमिवेश न चोद्विजन्तः। क्षेमाय भूतय उतात्मसुखाय चास्य विक्रीडितं भगवतो रुचिरावतारैः। यद्यच्च मन्युमसुरश्च हतस्त्वयाद्य मोदेत साधुरपि वृश्चिकसर्पहत्या। लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे रूपं नृसिंह विभयाय जनास्मरन्ति। नाहं बिभेम यजिततेति भयानकास्य जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात्। आन्त्रस्रजः क्षतजकेसरशङ्कुकर्णान् निरादभीतदिगिभादरिभिन्नखाग्रात्। त्रस्तोऽस्म्यहं कृपणवत्सलदुःसहोग्र संसारचक्रकदनाग्रसतां प्रणीतः। बद्धस्वकर्मभिरुषत्तमतीघ्रिमूलम् प्रीतोपवर्गशरणं वयसे कदानु। यस्मात् प्रिया प्रियवियोगसयोगजन्म शोकाग्निना सकलयोनिषु दह्यमानः। दुःखौषधं तदपि दुःखमतद्धियाहं भूमन् भ्रमामि वद मे तव दास्य योगम्। सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंहविरेच गीताः। ऐजस्ति तर्म्यनुगृणन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहं ससङ्गः। बालस्य नेह शरणं पितरौ नृसिंह नार्तस्य चागदमुदन्वति मयि जतो नौः। तप्तस्य तत्प्रतिविधिर्यैहाजसेष्टस्तावद्विभूतनुभृतान् त्वदुपेक्षितानाम्। यस्मिन् यतो यर्हि येन च यस्य यस्माद् यस्मै यथा यदुतयस्त्वपरः परो वा। भावक् करोति विकरोति पृथक् स्वभावस्सञ्चोदितस्तदखिलं भवतः स्वरूपम्। मायामनस्सृजति कर्ममयं बलीयक् कालेन चोदितगुणानुमतेन पुंसः। छन्दोमयै क्षारम् संसार चक्रमजकोतितरीत्वदन्यः सत्वं हि नित्यविजितात्मगुणस्वधाम्ना कालो वशीकृतविसृज्य विसर्गशक्तिः चक्रे विसृष्टमजयेश्वरषोडशारे निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् दृष्टा मया दिवि विभोखिलधिष्ण्यपाना मायुश्रियो विभव इच्छति याय जनोऽयम् ये स्मत्पितुः कुपितहास विजृम्भितभ्रु विस्फूर्जितेन लुलिता सतु तेर्निरस्तः तस्मादमूस्तनुभृता महमाशिषोऽज्ञ आयुश्रियं विभवमैन्द्रियमाविरीचात् नेच्छामि ते विलुलितानुरुविक्रमेण कालात्मनोपनयमान्निजभृत्यपार्श्वम् कुत्राशिषश्रुतिसुखा मृगतृष्णिरूपाक् क्वेदङ्कलेवरमशेषरुजा विरोह निर्वेद्यते न तु जनो यदपीति विद्वान् कामानलं मधुलवै शमयन्दुरापैः क्वाहं रजः प्रभव ईशतमोऽधिकेऽस्मिन् जातसुरेतरकुले क्वतवानुकम्प न ब्रह्मणो न तु भवस्य न वैरमाया यन्मीर्पितः शिरसि पद्मकरः प्रसादः नैषा परावरमतिर्भवतो ननु स्याज् जन्तोर्यथात्मसुहृदो जगतस्तथापि संसेवया सुरतरोरिव ते प्रसादस्सेवानुरूपमुदयो न परावरत्वम् एवै जनन्नि पतितं प्रभवाहि कूपे कामाभिकाममनुयः प्रपतन् प्रसङ्गात् कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतस् सोऽहं कथन्नु विसृजे तव वृत्यसेवाम् मत्प्राणरक्षणमनन्तपितुर्वधश्च मन्ये स्ववृत्यऋषिवाक्यमृतौ विधातुम् खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् त्वामीश्वरो मदपरोवतुकं हरामि एकस्त्वमेव जगदेतदमुष्य यत्त्व माद्यन्तयोः पृथगवस्यसि मध्यतश्च सृष्ट्वा गुणं व्यतिकरन् निजमाययेदन् नानेव तैरवसितस्तदनुप्रविष्टः त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं यपार्थ यद्यस्य जन्मनिधनं स्थितिरीक्षणै च तद्वै तदेव वसुकालवदष्टितर्वोः न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये शेषेत्मना निजसुखानुभवो निरीहः योगेन मीलितदृगात्मनि पीतनिद्रस्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे तस्यैव तेव पुरिदन्निजकालशक्त्या सैचोदित प्रकृतिधर्मण आत्मगूढम् अम्भस्यनन्तशयनाद्विरमत्समाधिर्नाभिरभूत्स्वकणिकावटवन्मः तत्सम्भवः कविरतोऽन्यदपश्यमानस्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य नाविन्ददग्धशतमप्सु निमज्जमानो जातेऽङ्कुरे कथमुहोपलभे सत्त्वात्मयो निरतिविस्मित आस्थितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः त्वामात्मनीश भुवि गन्धमिवाति सूक्ष्मं भूतेन्द्रियाशयमये विततन् एवं सहस्रवदनाङ्घ्रिशिरः करोरु नासास्य कर्णनयनाभरणायुधाढ्यं मायामयं सदुपलाक्षितसन्निवेशन् दृष्ट्वा महापुरुषमाप मुदौ विरीचः तस्मै भवान् हयशिरस्तनु वै च बिभ्रद् वेददृहावति बलौ मधुकैटभाख्यौ हत्वा नयच्छ्रुतिगणां स्तुरजस्तमश्च सत्वन्तव प्रियतमान्तनुमामनन्ति इत्थं धृतिर्यगृषिदेवझषावतारैर्लोकान् विभावयसि हंसि जगत् प्रतीपान् धर्मं महापुरुषपासि युगानुवृत्तये छन्दः कलौ यदभवस्त्रियुगोऽथ सत्त्वं नैतन्मनस्तव कथासु विकुण्ठनाथ संप्रीयते दुरितदुष्टमसाधु तीव्रम् कामातुरं हर्षशोकभयैषणार्तन् तस्मिन् कथं तव गतिं विमृशामि दीनः जिह्वैकतोच्युत विकर्षति मा वितृप्ता शिष्णोन्यतस्त्वगुदरं श्रवणं कुतश्चित् घ्राणोन्यतश्च फलदृक्वच कर्मशक्तिर् बह्व्यसपत्न्यैव गेहपतिल्लुनन्ति एवं स्वकर्म पतितं भववै तरण्या मन्योन्यजन्ममरणाशनभीतभीतम् पश्यै जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचरपि ब्रूहि मूढमद्य कोन्वत्र ते खिल गुरो भगवन् प्रयास उत्तारणेस्य भवसंभवलोपहेतो मूढेषु वै महदनुग्रहार्तबन्धो किं तेन ते प्रियजनाननुसेवतान्नः नैवो द्विजे परदुरत्यय वैतरण्यास् त्वद्वीर्यगायन महामृतमग्नचित्तः शोचे ततो विमुखचेतस इन्द्रियार्थ माया सुखाय भरमुद् वहतो विमूढान् प्रायेण देवमुनयस् स्वविमुक्तिकामा मौनै चरन्ति विजनेन परार्थनिष्ठाः नैतान् विहाय कृपणान् विमुमुक्षये को नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये यन्मैथुनादिगृहमेधिसुखं हि तुच्छं कण्डूयनेन करयोरिव दुःखदुःखं तृप्यन्ति नेह कृपणा बहुदुःखभाजक् कण्डूति वन्मनसिजौ विषहेतधीरः मौनव्रतश्रुततपोऽध्ययनस्वधर्मव्याख्यारहो जपसमाधय आपवर्ग्याः प्रायः परं पुरुषते त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् रूपे इमे सदसति तव वेदसृष्टे बीजाङ्कुराविव न चान्यदरूपकस्य युक्ता समक्षमुभयत्र विचिन्वते त्वाय योगेन वह्निमिव दारुषु नान्यत स्यात् त्वं वायुरग्निरवनिर्वियदम्बुमात्राः प्राणेन्द्रियाणि हृदयै चिदनुग्रहश्च सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत्वदस्त्यपि मनोवचसा निरुक्तम् नैते गुणान् गुणिनो महदादयो ये सर्वे मनः प्रभृति सह देवमर्त्याः आद्यन्तवन्त उरुगाय विदन्ति हेत्वा मेवौ विमृश्य सुधियो विरमन्ति शब्दात् तत्तेर्हत्तमनमस्तुति कर्म पूजाक् कर्म स्मृतिश्चरणयो श्रवणं कथायां संसेवया त्वयि विनीति षडङ्गया किं भक्तिजनः परमहं सगतौ लभेत। नारद उवाच एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत। श्रीभगवानुवाच प्रह्लाद भद्र भद्रन्ते प्रीतो हन्ते सुरोत्तम वरौ वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणां मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे दृष्ट्वा मान पुनर्जन्तु रात्मानं तप्तुमर्हति। प्रीणन्ति यथ मां धीरा सर्वभावेन साधवः श्रेयस्कामा महाभागास् सर्वासामाशिषां पतिम् एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः एकान्तित्वाद् भगवति नैच्छत्तान सुरोत्तमः। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरिते भगवत्स्तवो नाम नवमोऽध्यायः। ॐ